इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा। आदौ मुख्य वार्ताः। प्रधानमंत्री भाजपेति दलस्य च वरिष्ठ नेता श्री नरेन्द्र मोदी प्रोक्तवान् यत् एनडीए सर्वकारस्य गत 10 वर्षेषु 25 कोटि जनाः निर्धनता स्थितेः बहिरानीताः। भारतीय लोकसभा निर्वाचनं द्रष्टुं 23 देशानां 75 प्रतिनिधयः भारतं प्रति आगतवन्तः। राष्ट्रपतिः द्रौपदी मुर्मुः हिमाचल प्रदेशस्य 5-दिवसीय यात्रावसरे शिमला नगरं प्राप्नोत्। स्नातक चिकित्सा कार्यक्रमेषु प्रवेशार्थं नीट 2020 इति प्रवेश परीक्षा आदेशं श्वः आयोजयिष्यते। अपि च क्रीडावार्तायां आईपीएल इति क्रिकेट स्पर्धान्तर्गतं अद्य सायं रॉयल चैलेंजर्स बेंगलुरु इत्यस्य दलस्य सम्मुखीकरणं गुजरात टाइटन्स इति दलेन सह भविष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य अवशिष्टानां चरणानां कृते सम्प्रति उच्चस्तरीय प्रचाराभियानं प्रवर्तते। प्रमुख राजनैतिक दलानां शीर्षनेतारः मतदातृन् लोभयितुं न कमपि उपायं परित्यजन्ति। भाजपेति दलस्य वरिष्ठनेता प्रधानमंत्री च श्री नरेन्द्र मोदी अद्य अपराह्ने झारखण्डस्य पलामू गुल्मा जनपदयोः निर्वाचन सभां सम्बोधितवान्। श्रीमोदिना प्रोक्तं यत् एनडीए सर्वकारस्य शासनकाले विगतेषु 10 वर्षेषु 25 कोटिजनाः दरिद्रता अवस्थातः बहिरानीताः। देशे सर्वकारेण संचाल्यमानाः निःशुल्क अन्नयोजना आगामि 5 वर्षपर्यन्तमपि निरन्तरम् एवमेव प्रचलिष्यति। तत्र न कापि शक्तिः तादृशी वर्तते यत् सा योजनाम् इमां स्थगयितुं शक्नुयात्। अपि च अस्मिन् सन्दर्भे मोदिनः प्रतिभूति गारण्टीति अपि प्रदत्ता। प्रधानमन्त्रिणा दृढतया प्रोक्तं यत् अस्माभिः सुनिश्चितं यत् अल्पधनः जनः अपि अन्तर्जालस्य प्रभूतम् उपयोगं कर्तुं समर्थाः भवेयुः। अस्मिन् दिशि अस्माभिः प्रभूतं कार्यमपि कृतम्। पूर्वं तु कांग्रेस शासनकाले केवलं धनिनः एव अन्तर्जालस्य उपयोगं कर्तुं समर्थाः आसन्। कांग्रेस दलेन आदिवासी जनपदानां नाशं कृत्वा तेषां दयनीय स्थितिः कृता। श्रीमोदिना झारखण्ड मुक्ति मोर्चा कांग्रेस दल नेतृभि कृतस्य भ्रष्टाचारस्य विषये प्रोक्तं यत् ते स्ववंशजानां कृते प्रभूतं धनसंचयनं कुर्वन्ति अपि च तैः कृतमपि वर्तते इति श्रीमोदिना आरोपितम्। प्रधानमन्त्रिणा लोकतन्त्रे प्रत्येकं मतस्य महत्वमपि प्रतिपादितं। तेनोक्तं यत् मतदानकारणादेव जम्मू काश्मीरेषु अनुच्छेदस्य 370 इत्यस्य समूलोन्मूलनं सञ्जातमिति। 500 वर्षाणां संघर्षानन्तरं राममन्दिरनिर्माणं सञ्जातं, तत्रापि मतदानस्य एव महत्वमासीत्। अनेन सहैव असंख्यास्त्रीणाम् आशाः अपि मतदानकारणादेव पूर्तिं गताः। तस्मादेव ताः उज्ज्वला मुद्रा आवासादि विविधयोजनानां लाभं प्राप्तुं समर्थाः सञ्जाताः। सम्पूर्णेन अपि विश्वेन 2014 भारतीय प्रजातन्त्रस्य सामर्थ्यं बलञ्च जनमतेन एव दृष्टम्, अपि च अभिवादनमपि सम्पूर्णविश्वेन कृतमासीत्। देशे लोकसभा निर्वाचनं द्रष्टुं 23 निर्वाचन प्रतिबन्धनिकायानां 75 अन्ताराष्ट्रिया आगन्तुकाः भारतं प्राप्तवन्तः। उच्चतम मानकानां कथं भारतीय नैर्वाचनिक आयोगः पालनं करोति अपि च कथं तदर्थं लोकतान्त्रिक प्रतिबद्धतां निभालयति इति तादृशीं प्रक्रियां एते जनप्रतिनिधयः प्रत्यक्षतः निर्वाचन कार्यक्रमेषु पश्येयुः। एतदर्थमेव ते अत्र आहूताः सन्ति। स्वयात्राकाले एते प्रतिनिधयः अद्यारभ्य आरभ्यमाणेषु दिवसीय कार्यक्रमेषु भागं ग्रहीष्यन्ति। निर्वाचन निकायेन प्रोक्तम् अस्ति यत् कार्यक्रमस्य उद्देश्यं वैदेशिक निर्वाचन प्रबन्धन निकायः भारतीय नैर्वाचनिक प्रणाल्याः सूक्ष्मतया निरीक्षणं कुर्युः, अपि च विश्वस्य बृहत्तम लोकतन्त्रे कथं नैर्वाचनिक प्रक्रियाः सम्पन्नाः भवन्ति इति विषये अपि ते परिचिताः भवेयुः। श्वः मुख्य निर्वाचन आयुक्तः राजीव कुमारः, ज्ञानेश कुमारः, डॉक्टर सुखवीर सिंह संधू च एतान् वैदेशिक प्रतिनिधीन् सम्बोधयिष्यन्ति। ततः परं एते प्रतिनिधयः विभिन्न राज्येषु जायमानेषु निर्वाचनेषु यथा महाराष्ट्र, गोवा, गुजरात, कर्नाटक, मध्यप्रदेश, उत्तरप्रदेशेषु गमिष्यन्ति। अयं कार्यक्रमः एतस्य मासस्य नवदिनांके सम्पन्नो भविष्यति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः हिमाचल प्रदेशस्य पञ्चदिवसीय यात्रावसरे अद्य प्रातः शिमलानगरम् प्राप्नोत्। शिमला समीपे कल्याणी हेलीपैड इत्यत्र अवतीर्णे सति राज्यपाल शिवप्रताप शुक्लः, मुख्यमंत्री सुखवेन्द्र सिंह सुक्खू च तस्याः स्वागतं कृतवन्तौ। राष्ट्रपति महोदयायाः कृते ते सम्मानार्थम् अंगरक्षकम् अपि प्रदत्तवन्तौ। पश्चात् सां शोभरानगरस्य राष्ट्रपति निवासस्थानं द रिट्रीट इति स्थलं प्रति प्रस्थितवती। राष्ट्रिय परीक्षण एजेंसी स्वः स्नातक चिकित्सा कार्यक्रमेषु प्रवेशार्थं राष्ट्रिय पात्रता सह प्रवेश परीक्षा नीट इत्यस्य आयोजनार्थं सर्वदा सज्जा वर्तते। एतस्मिन् वर्षे आदेशं 57.5 नगरेषु भारतात् बहिश्च 14 नगराणां विभिन्न केन्द्रेषु 24 प्रतिभागिनः परीक्षायां सम्मिलिताः भविष्यन्ति। परीक्षा भारतीय समयानुसारं मध्याह्ने 2 सायं 5:25 यावत् भविष्यति। परीक्षक संस्थया एनटीए इत्यनया प्रोक्तं यत् परीक्षार्थम् आत्मना सह स्वीय प्रवेश चिटिकां, परिचयपत्रं, छायाचित्रादिकं सहैव विद्यार्थिनः नयेयुः इति। एतादृशं विवरणं परीक्षाकाले परिचयादि सत्यापनार्थम् अनिवार्यं वर्तते। यदि कस्यचित् परीक्षार्थिनः प्रवेशचिटिकायां बारकोड सहित विभिन्न परिचयं विवरणं एकदा न मुद्रितं भवति तर्हि सः परीक्षार्थी पुनः वेबफलकात् पुनः स्वीय प्रवेशचिटिकां निष्कासयेत्। परीक्षार्थिनः एतस्मिन् विषये अपि संसूचिताः यत् ते परीक्षाकालात् पूर्वमेव परीक्षाकेन्द्रे प्राप्नुयुः, येन परीक्षापूर्व सर्वविध औपचारिकताः सकुशलं यथाकालं च सम्पादिताः भवेयुः। केन्द्रेण अद्य पलाण्डु इत्यस्य निर्याते प्रतिबन्ध अपसारितः। विदेश व्यापार महानिदेशालयेन संसूचितं यत् प्रति मीट्रिक टन इत्यस्य न्यूनतम निर्यात मूल्यं 5.5 अमेरिकी डॉलरात्मकं शुल्कापसारणादेशः तत्क्षणमेव प्रभावी भविष्यति। विगत मासे केन्द्रेण 6 बंगलादेश, यूई, भूटान, बहरीन, मॉरिशस, श्रीलंका च देशेभ्य 99,000 मैट्रिक टन पर्यन्तं पलाण्डु इत्यस्य निर्यातस्य अनुमतिः प्रदत्ता आसीत्। पश्चिम एशियायाः केषाञ्चन यूरोपीय देशानां च निर्यात विपण्यस्य कृते विशेषतया उत्पादितस्य श्वेत पलाण्डु इत्यस्य 2,000 मैट्रिक टन इत्यस्य निर्यातस्य अपि अनुमतिः सर्वकारेण प्रदत्ता वर्तते। लोकसभा निर्वाचन चतुर्थ चरणस्य 10 केन्द्रशासित प्रदेशानां च 7,000 प्रत्याशिनः निर्वाचने भागं गृह्णन्ति। तत्र तेलंगाना राज्ये 14,000 प्रत्याशिनः नामांकनं पूरितवन्तः। ततः परं आन्ध्रप्रदेश द्वितीयस्थाने वर्तते, अपि च तेलंगाना मध्ये मल्कागिरी निर्वाचन क्षेत्रे 70,000 नामांकनानि प्राप्तानि सन्ति। क्रीडावार्तायाम् आईपीएल इति क्रिकेट स्पर्धा अन्तर्गतम् अद्य सायं रॉयल चैलेंजर्स बेंगलुरु इत्यस्य दलस्य सम्मुखीकरणं गुजरात टाइटन्स इति दलेन सह भविष्यति। ह्यः सायंकाले मुंबई नगरे कोलकाता नाइट राइडर्स इति दलेन मुंबई इंडियन इति दलं 24 धावनांकैः पराजितम् आसीत् इति वार्ताः।